समीप नमस्कारः. वयं गतवर्गे लोट्लकारस्य परिचयम् अपि अभ्यासं कृतवन्तः. तत्र परस्मैपदी धातूनां लोट्लकारः अस्ति, आत्मनिपदी धातूनां लोट्लकारः अपि अस्ति. किन्तु प्रथमतया परस्मैपदी धातूनां लोट्लकारस्य अभ्यासं कुर्मः, तदनन्तरम् आत्मनिपदी धातूनां लोट्लकारस्य अभ्यासं कुर्मः. तत्र पुटसङ्ख्या 52 पश्यतु. तत्र पट् इति धातु, तत्र लोट्लकारे रूपं किमिति पुनरेकवारं पश्यामः. तत्र अस्ति सन्ध्या भगिनी वा तत्र लोट्लकारे लोट्लकररूपं कीदृशम् अस्ति इति पट् धातु यत् अस्ति पुटसङ्ख्या 52 मध्ये. केवलं पठतु, पठताम् इति.
अहं पठामि वा? पठतु, पठतां, पठन्तु, पठ, पठतं, पठत, पठानि, पठाव, पठाम.
हा इति अस्ति. तत्र लोट्लकारस्य रूपं तत्र पठावः पठामः इति अस्ति. तत्र विसर्गः गच्छति, केवलं पठाव पठाम इति अस्ति. पठामि इति स्थाने पठानि नकारः अस्ति. पठसि इति स्थाने पठ अस्ति. तत्र पठति पठतु भवति, पठति पठतः, पठन्ति. तत्र पठतु पठतां पठन्तु इति भवति. पठसि पठतः पठत भवति, पठ पठतं पठत. तत्र किञ्चित् समानमस्ति, किञ्चित् भेदः अपि अस्ति, किन्तु सुलभमेव अस्ति लोट्लकाररूपम्. अत्र अभ्यासरूपेण यत् अत्र गृहपाठः आसीत् तद् कुर्मः. कः प्रथमं वक्तुम् इच्छति? नरेश महोदय, प्रथम अभ्यासः करोति वा? पेज् 51.
आम्, प्रथम अभ्यास. भवान् सूचयतु, भवती गायतु. भवान् प्रेषयतु, भवती चलतु. भवान् त्यजतु, भवती मिलतु. भवान् सञ्चरतु, भवती तिष्ठतु. भवान् प्रदर्शयतु, भवती जानातु. भवान् दण्डयतु, भवती प्रक्षालयतु.
हा समीचीनं महोदय, समीचीनम् अस्तु. अग्रे कः रघुपतिमहोदय अथवा सरला भगिनी द्वितीयम् अभ्यासः करोति वा?
सन्मार्गम् अनुसरतु, सहयोगं ददातु, प्रकृतिं पश्यतु, संस्कृतं लसतु, ध्येयं स्मरतु. अपि ददातु अपि ध्येयं न?
हा ध्येयं, ध्येयं स्मरतु, पश्यतु ध्येयं स्मरतु. ध्येयं स्मरतु प्रायशः एव समीचीनम्
अस्तु. भारतं जयतु,
भारतं जयतु. धन्यवादः भगिनि. हा धन्यवादः नरेश महोदय अपि. हा समीचीनम् आसीत्. अस्तु, हा इदानीं तत्र तृतीय गृहपाठ सन्ध्या भगिनी करोति वा तत्र?
महोदय लसतु, लसतु किम् अस्ति?
लसतु इत्युक्ते किमस्ति? लेट् इट् शैन् इति.
लसतु संस्कृतं जयतु भारतम्.
हा तत् संस्कृतभारत्याः गीतायां भवति खलु. समीचीनं महोदय, सत्यं. हा सन्ध्या भगिनी तृतीयं तत्र कर्तुमिच्छति वा तत्र?
क्षम्यताम् अहं केवलं प्रथमं कृतवती.
अस्तु 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 भगिनि, पुनरेकवारं प्रथममेव तद् पुनरेकवारं वदतु तत्र.
ओ ओके. भवान् सूचय तद् अभ्यास ओके. भवान् सूचयतु, भवती गायतु, भवान् प्रेषयतु, भवती चलतु, भवान् यजतु, भवती मिलतु, भवान् सञ्चरतु, भवती तिष्ठतु, भवान् प्रदर्शयतु, भवती जानातु, भवान् दण्डयतु, भवती प्रक्षालयतु.
समीचीनं भगिनि, समीचीनं, धन्यवादः. अस्तु रघुपतिमहोदय, तृतीय अभ्यासः करोतु.
महोदय, परिश्रमं करोतु, जागरूकः भवतु, प्रवचनं शृणोतु, विजयं प्राप्नोतु, शक्तिं सम्पादयतु, दुर्गुणं त्यजतु, लक्ष्यं साधयतु, पराक्रमं प्रदर्शयतु, चित्रं करोतु, चित्रं निर्मातु, नूतनं सृजतु, सृजतु अस्ति,
सृजतु. सर्वे अवगच्छन्ति वा एतानि वाक्यानि यद् रघुपतिमहोदय उक्तवान्? परिश्रमम् अथवा जागरूकः, प्रवचनं, विजयं, शक्तिं, दुर्गुणं, लक्ष्यं, पराक्रमं, चित्रं, नूतनम्. अस्तु, तत्र लोट्लकाररूप बहु प्रसिद्धः अस्ति. तत्र अहम् ईमेल् द्वारा अहम् एतत् द्वारा उक्तवान् अध्यारभ्य वयम् एतत् किञ्चित् कर्तुम् इच्छामः. अत्र यद् अध्यारभ्य एतत् ब्लाक् बोर्ड् इति केवलम् एतत् गूगल् फैल् अस्ति, किन्तु किञ्चित् यदि वदामि तत्र क्लेशः भवति इति कृत्वा, यदि लेखितमस्ति चेत् सुलभः भवति इति कृत्वा एतत् अहं कृतवान्. सर्वे लिङ्क् प्राप्नुवन्तः इति मन्ये, तत्र ईमेल् द्वारा तत्र लिङ्क् एस् अवर् क्लास् ब्लाक् बोर्ड् इति अस्ति, सण्डे क्लास् बोर्ड्, सर्वे पश्यन्ति वा तत्र?
महोदय, भवतः ईमेल्
न प्राप्तवती वा? तत्र नास्ति वा? एकनिमिषः अहम् एतत् लिङ्क् प्रेषयामि. एकनिमिषः भगिनि.
अहं चिन्तयामि नूतन चेन् अस्ति, किमर्थम् अहं कदापि इदानीं भवतः ईमेल्.
हा, अत्र स्पोकन् संस्कृत, तत् संस्कृतं 2013 इति गूगल् ग्रूप्स् द्वारा ईमेल् प्रेषितव्यः अस्ति. इदानीं प्राप्तवती वा भगिनि? अस्तु. तत्र लोट्लकार बहु प्रसिद्धः अस्ति, तत्र गतवर्गे अपि वयं दृष्टवन्तः. एतत् असतोम सद्गमय, तमसोम ज्योतिर्गमय, मृत्युर्म अमृतं गमय, ॐ शान्ति शान्ति शान्तिः. तत्र किमस्ति? तत्र गमय इति लोट्लकार मध्यमपुरुषे एकवचनरूपम् अस्ति. तत्र लोट्लकारस्य रूपम् अहं तत्र दत्तवान् अस्मि. तत्र गमयतु, गमयतां, गमयन्तु इति लोट्लकाररूपम् अस्ति. अस्तु, तत्र अस्तु, इदानीं तत्र अग्रे यत् वयं कर्तुम् इच्छामः तत्र, अतः अहं कोष्टकानि, कोष्टकं यत् अधोभागे अपि अस्ति तत् स्थापितवान्, तदपि अग्रे पश्यामः. इदानीम् अग्रिमपुटे अथवा अग्रिमपुटे पेज् 52 पश्यामः. तत्र उदाहरणं यत् अस्ति तत् पुनरेकवारं कुर्मः, अपि पञ्चम अभ्यास अग्रिमपुटे कुर्मः. यदि आवश्यकम् एतत् कोष्टकम् अस्ति तत्र जानातु इति लोट्लकाररूपम् अहं किञ्चित् स्थापितवान् अस्मि तत्र. अस्तु, नरेश् महोदय, अग्रिमपुटे यत् चत्वारः हेतोधारणं रिक्तस्थानानि पूर्यते इति, तत्र प्रथमभागं, केवलं प्रथमभागं करोतु महोदय. क्रीडति, क्रीडतु इति अस्ति,
क्रीडति, क्रीडतु, क्रीडति, क्रीडतः, क्रीडन्ति, क्रीडतु, क्रीडतां, क्रीडन्तु, नमति, नमतः, नमन्ति, नमतु, नमतां, नमन्तु, रक्षति, रक्षतः, रक्षन्ति, रक्षतु, रक्षतां, रक्षन्तु, भ्रमति, भ्रमतः, भ्रमन्ति, भ्रमतु, भ्रमतां, भ्रमन्तु.
हा, समीचीनं महोदय, धन्यवादः. हा, सरला भगिनी, अग्रिमम्
स्मरसि, स्मरसि, स्मरथ, स्मरथ, लोटे अस्ति, स्मर, स्मरतं, स्मरत, त्यजसि, त्यजथ, त्यजत, त्यज, त्यजतं, त्यजत, स्पृशसि, स्पृश, स्पृशतं, स्पृशसि, स्पृशसि, स्पृशथ, स्पृशथ, लोटे भवति, स्पृश, स्पृशतं, स्पृशत, कूजसि, कूजथ, कूजथ, कूज, कूजतं, कूजत.
हा, समीचीनं भगिनि, धन्यवादः. सन्ध्या भगिनि, अग्रिमम् अहम्, आवां, वयम् इति.
आम्, हसामि, हसावः, हसामः, हसानि, हसाव, हसामा, पचामि, पचावः, पचामः, पचानि, पचाव, पचामा, तरामि, तरावः, तरामः, तराणि, तरावः,
तराणि. समीचीनं, तरावः किं भवति?
ओ, तराव.
हा,
ओ, विसर्गः,
विसर्गस्य लोपः, विसर्गः नास्ति.
तराव, तराम, भवामि, भवावः, भवामः, भवानि, भवाव, भवाम.
हा, समीचीनं भगिनी, नमस्कारः भगिनी, गीता भगिनी, नमस्कारः. हा, सन्ध्या भगिनी, धन्यवादः. हा, समीचीनम्. इदानीं वयं एतत् कुर्मः, अत्र लोट्लकारस्य एतदेव अस्ति, अग्रिमपुटे अपि किञ्चित् अस्ति, पेज् 54 मध्ये यदस्ति तत्र अभ्यास, अष्टम अभ्यासः अस्ति, किन्तु तत् किञ्चित् पठित्वा अहं चिन्तितवान् त्यजामः इति. तत् किमर्थं चेत् त्वं ताडय, त्वं लुण्टय इत एतत् अस्ति. हा, तद् इदानीं मास्तु. हा, गीतासोपानम् इति कुर्मः, तत्र हिंसा इति क्रियापदस्य न भवति इति कृत्वा तत्र पेज् 56 मध्ये द्वादश अभ्यासः अस्ति, तत् कुर्मः.
अहं महोदय विलम्बेन क्षम्यताम्.
अस्तु भगिनि, हा नमस्कारः रमा भगिनि, नमस्कारः रमजयन्ति भगिनि, नमस्कारः. अस्तु, तत्र रघुपतिमहोदय, तत्र द्वादश अभ्यासः पेज् 56 मध्ये, तत्र किञ्चित् करोतु, तदनन्तरम् अन्य कोऽपि करोतु महोदय.
पाण्डवानां शिबिरं युद्धसन्नाः प्रवर्तते. सेनापतिः दुष्टद्युम्नः सूचनाः ददाति. आवरणे स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः किं कं किम् आदिशति इति लिखत.
प्रथमं महोदय, तत्र अभ्यासः कः, तत्र किं वक्तुम् इच्छति इति तत् किञ्चित् वदतु. तत्र अभ्यासः
आशयः अस्ति अत्र युद्धसन्नाः अस्ति, युद्धसन्नाः पाण्डवाः कुरुक्षेत्रयुद्धं प्रचलति, पाण्डवाः युद्धसन्नाहं कुर्वन्तः सन्ति. तेषां सेनापतिः दृष्टद्युम्नः सः सूचनां ददाति किं किं करणीयम् इति. किं सः कं प्रति किम् आदिशति इति अधः दत्तमस्ति, तत् पूरणीयं.
तत्र
आदिशति आदेशं ददाति.
तस्य पूर्वं किम् अस्ति, आदिशति क्रियापदस्य पूर्वं किम् अस्ति? क्रियापदं सः इति किं भवति?
सः प्रथमपुरुषः.
तत् कर्तृपदं वा कर्मपदं वा?
सः आदिशति
सः इति कर्तृपदं. समीचीनं, सः इति कर्तृपदम् आदिशति. सः इत्युक्ते दृष्टद्युम्नः आदिशति. मध्ये किम् अस्ति? सः अपि आदिशति मध्ये.
सः कं 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 कर्मपद कर्मपद आदिशति कम् आदिशति
किम् इति अस्ति. तदपि
किम् तदपि किम् आदिशति तदपि कर्मपदवान् एव. किं
तत्र कर्मपदद्वयमस्ति, तदेव
द्विकर्मकधातु
इति वदामः. आदिशति द्विकर्मकधातुपद
आदिशति आदिशति द्विकर्मक
द्विकर्मकः. अत्र कः इति अस्ति, तस्य द्वितीया विभक्ति अस्ति कम्. किम् इति नपुंसकलिङ्गे अस्ति, अतः प्रथमविभक्ति वा द्वितीयविभक्ति वा किम् एव भवति. अतः अत्र युद्धसन्नः आवरणे, तत्र दृष्टद्युम्नः सूचनाः ददाति इति अस्ति. सूचनाः इति ददाति इति क्रियापदमस्ति, दृष्टद्युम्नः इति
कर्तृपद, अतः ददाति एकवचनम्
एकवचनमस्ति. सूचनाः इति अस्ति,
सूचनाः बहुवचना सूचना सूचनाः बहुवचन सूचना इति स्त्रीलिङ्ग अस्ति वा?
सूचनाः, समीचीनं महोदय.
सूचना
इति स्त्रीलिङ्गे अस्ति. लते लता लते लताः द्वितीयविभक्तिरूपं किम् अस्ति? लता लते लताः लतां
लतां द्वितीय लतां सू लते 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 लते
लताः एव अस्ति बहुवचने. अतः तत्र सूचनाः इति अस्ति, किन्तु तत् प्रथमविभक्तिरूपं द्वितीयविभक्तिरूपं बहुवचनं समानमस्ति, किन्तु अत्र कर्मपदम् इति ज्ञातव्यमस्ति. अस्तु महोदय, धन्यवादः. अस्तु, इदानीम् अग्रे वदतु महोदय. तत्र
उदाहरण सूर्योदयः जातः सूर्योदयः जातः यूयं सर्वे उत्तिष्ठत आवरणे उत्तिष्ठन्ति युद्धार्थः युद्धार्थं सज्जाः भवन्तु
भवन्तु
भवन्तु सज्जाः भवन्तु सुकेश त्वं द्वारे तिष्ठसि त्वं द्वारे तिष्ठ
त्वं द्वारे तिष्ठ
यूयं खड्गान् तीक्ष्णान् खड्गान् तीक्ष्णान् कुरुत कुरुत यूयं कुर्वध्वं यूयं कुर्वध्वम्
न न कुरुत इति
कुरुत कुरुत
करोति इति करोति इति रूपं लट् लकारे किम् अस्ति महोदय लट् लकारे कोऽपि वदति वा करोति
करोति करोतु
तत्र ब्लाक् बोर्ड् पश्यतु तत्र अस्ति दत्तमस्ति
एकनिमिषं
हा ब्लाक् बोर्ड् तत्र पश्यतु द्वितीयपुटे तत्र
शृणोति कुरुत करोतु कुरुतां कुर्वन्तु कुरु कुरुतं कुरुत करवाणि करवाव करवाम
इति लोट् लकारः अस्ति
लोट् लकारः अस्ति ओके ओके
किन्तु अतः लट् लकारः अस्ति करोति कुरुतः कुर्वन्ति करोषि कुरुतः कुरुत करोमि कुर्वः कुर्मः
त्वं द्वारे तिष्ठतु यूयं खड्गान् तीक्ष्णान् कुरुत भीम अद्य भवान् गजसैन्यं नयतु भोः यूयं कवचानि धरत
तत्र महोदय तत्र क्लेशः किमपि न
भवति
चेत् यूयम् इति अस्ति तत्र त्वं युवां यूयम् इति अतः तत् मध्यमपुरुषः
बहुवचन अस्ति अत्र अल्पप्राणः धरत करोति करोति एव अत्रापि
धरत तत्र धरथ धरत इति तकारः
नकुल नकुल अद्य त्वं व्यूहं रचयसि रच
तत्र
रचय ओके रचय
अहं चिन्तयामि रचय इति
किमर्थं
चेत् तत्र अत्र रूपस्य केवलम् एकं लोट्लकारस्य एकः एव एकमेव रूपम् इति न वक्तुं शक्नुमः तत्र गणस्य विषयः अत्र अतः एव तत्र साधयतु इति तत् कोष्टकं करोतु इति तस्य अनुभागे अत्र साधय इति अस्ति
अद्य त्वं व्यूहं रचय सर्वे व्यूहे सज्जा तिष्ठन्तु
सज्जाः तिष्ठन्तु
सेनापतिः अग्रे तिष्ठतु यूयं तस्य रक्षणं कुरुत
समीचीनं महोदय धन्यवादः महोदय सन्ध्या भगिनी अग्रे पठति वा तत्र केवलं वाक्यद्वयं तत् कृत्वा
अश्वदलं तत्र
समीचीनं भगिनि
अश्वदलं तत्र गच्छतु
अश्वदलं
इत्युक्ते किम्
अश्वधलम् अश्व इत्युक्ते हार्सेस् तस्य एकः समूहः
अस्तु ओ तर्हि गच्छन्तु वा
किं न न दलम् इति ग्रूप् इति एकवचने अस्ति
एते सैनिकाः गजम् आरोहन्तु
हा समीचीनं हा
भवन्तः कुन्तान् गृह्णन्तु
गृह्णन्तु
शत्रून् मर्दयन्तु
समीचीनं भगिनि धन्यवादः हा समीचीनम् अस्तु
कुन्तान् इत्युक्ते महोदय कुन्तान् इत्युक्ते किं
भवन्तः कुन्तान् गृह्णातु न जानामि महोदय कोऽपि जानाति किमस्ति अस्तु गीता कुमार भगिनी अस्ति गीताञ्जलि भगिनी अस्ति नमस्कारः नमस्कारः भगिनि वयं गीतासोपाने पेज् 56-57 मध्ये स्मः तत्र अहम् ईमेल् द्वारा एकं लिङ्क् अपि प्रेषितवान् तद् ब्लाक् बोर्ड् इति तत्र अहं किञ्चित् स्थापितवान् अस्मि सर्वे प्राप्तवन्तः वा गीता भगिनी रमजयन्ती भगिनी तद् दृश्यते वा ब्लाक् बोर्ड् इति
अस्तु महोदय
पुस्तकानि सर्वे सन्ति तत्र अस्तु अस्तु गीताकुमार भगिनी अद्य पठति वा अग्रे तत्र आक्रमणम् इति गीताञ्जलि भगिनिना गीताञ्जलि भगिनिना अद्य भवती गीताञ्जलि भगिनी अद्य शृणोति वा अद्य तत्र गीता भगिनी गीताकुमार भगिनी गीताञ्जलि भगिनी अतः अहं गीता इति वदामि तद् गीता कुमार भगिनी भवति गीताञ्जलि इत्युक्ते गीताञ्जलि भगिनी समीचीनं वा गीता भगिनी अग्रे तत्र आक्रमणं यत्र अस्ति
आक्रमणं कुर्वन्तु
आक्रमणं कुर्वन्तु
सर्वे दलपतिं अनुसरन्तु सर्वे अनुसरन्तु आज्ञां पालयन्तु च शत्रुपक्षे अस्त्राणि क्षिपन्तु सर्वे अरयः पतन्तु
तत्र अरयः इति जानाति वा
न जानामि
सर्वे मुरारी इति मुरारी समीचीनं महोदय रघुपति महोदय
हरयः
तादृश एव अरयः
यूयं यूयं शत्रून् यमलोकं प्रापयत नाट् महाप्राण
समीचीनं
वयं सायङ्कालात् पूर्वं विजयिनः भवाम धर्मरक्षणं कुर्म
तत्र कुर्म इति नास्ति करवाम इति अस्ति तत्र करोतु इति कृ धातु तत् किञ्चित् भेदः अस्ति. तत्र अहं ब्लाक् बोर्ड् मध्ये द्वितीयपुटे लोट्लकररूपं कोष्टक तस्य कोष्टकम् अस्ति. तत्र करोतु कुरुतां कुर्वन्तु कुरु कुरुतं कुरुत करवाणि करवाव करमवाम इति अस्ति. पश्यति वा भगिनि?
धर्मरक्षणं करवाम
करवाम. समीचीनं भगिनि. अस्तु, अतः तत् लोट्लकारस्य वयं किञ्चित् अभ्यासं कृतवन्तः. परस्मैपदी धातूनां लोट्लकारः. इदानीं वयं किञ्चित् तत्र एतत् अपि वक्तव्यम् अस्ति. तत्र लोट्लकारः बहु प्रसिद्धः इति अहम् उक्तवान्. तत्र असतोमासद्गमया मध्ये तत्रापि लोट्लकारः अस्ति. पुनर् अपि अन्यवार्ता अपि अस्ति तत्र. तत्र पुस्तके एतत् मुख्यांशः अस्ति. तत्र पेज् 52 मध्ये तत्र यत् रूपं दत्तमस्ति लोट्लकारस्य, पठतु पठतां पठन्तु पठ पठतं पठत पठानि पठाव पठाम, तत् सम्यक् एव अस्ति. किन्तु एकः अंशः तत्र न लिखितम् अस्ति. एकमंशं तद् एतदस्ति, तत्र मध्यमपुरुषे एकवचने रूपभेदः अस्ति. तत्र द्वितीयपुटे ब्लाक्बोर्ड् मध्ये द्वितीयपुटे पश्यतु, तत्र ददातु इति लोट्लकाररूपं, तत्र ददातु दत्तां ददतु देहि इति अस्ति. अतः सङ्गीत यत् शृण्मः खलु, पाहि मां देहि मां त्राहि मां, तत् सर्वत्र लोट्लकारः अस्ति.
भिक्षां देहि,
हा देहि, अत्र सर्वत्र लोट्लकारः एव अस्ति. किन्तु यदि पश्यामः पुस्तके देहि इति तत् रूपं तत् न दत्तमस्ति, किन्तु देहि इति लोट्लकारः अस्ति. त्राहि पाहि देहि सर्वं लोट्लकारः अस्ति. अस्तु, सङ्गीत यदि वयं सङ्गीतं शृण्मः तत्र बहुत्र वयं शृण्मः खलु, देहि इति, त्राहि, पाहि माम् इति, तत्सर्वं लोट्लकारः एव अस्ति. अस्तु, तद् अपि तत्र मध्यमपुरुषे एकवचने अन्यरूपम् अस्ति, तद् देहि इति, तदेव मुख्यांशः अस्ति तत्र. इदानीं लोट्लकार परस्मैपदी धातूनां लोट्लकारः तद् सम्यक् इति मन्ये. इदानीम् आत्मनिपदी धातूनां लोट्लकाररूपं तद् कीदृशं भवति इति पश्यामः. अस्तु, तत्रापि लोट्लकार बहु प्रसिद्धः अस्ति. आत्मनिपदी धातूनां लोट्लकारः अपि बहु प्रसिद्धः अस्ति. अतः तस्य उदाहरणं पेज् 55 मध्ये अस्ति. तद् एकवारं रूपं कीदृशम् इति पश्यामः. रमाजयन्ती भगिनी तत् पठति वा पेज् 55 मध्ये?
अस्तु महोदय.
तत् केवलं वन्दतां वन्देतां वन्दन्ताम् इति रूपं कीदृशं भवति इति तद् केवलं तद् वद पठतु भगिनि, रमाजयन्ती भगिनी.
अस्तु महोदय. प्रथमपुरुष एकवचनं, वन्दतां द्विवचनं, वन्देतां बहुवचनं वन्दन्ताम्. मध्यमपुरुष एकवचनं वन्दस्व,
मध्यमपुरुषा द्विवचनं वन्देहां, मध्यमपुरुषा बहुवचनं वन्दध्वम्, उत्तमपुरुषा एकवचनं वन्दै, उत्तमपुरुषा द्विवचनं वन्दावहै, उत्तमपुरुषा बहुवचनं वन्दामहै.
हा समीचीनं भगिनि. अस्तु, तत्र कः नरेश महोदय, तत्र नवम अभ्यासः यत्र अस्ति तत्र पुनरेकवारं तत्र शोभतां शोभेताम् इति अस्ति तद् कोष्टकं तदेकवारं पठतु महोदय.
शोभते शोभेते शोभन्ते, शोभतां शोभेतां शोभन्ताम्, रमते रमेते रमन्ते, रमथां रमेतां रमन्ताम्, अयते अयेते अयन्ते, अयताम् अयेताम् अयन्ताम्, स्मयते स्मयेते स्मयन्ते, स्मयताम् मयेताम् स्मयन्ताम्.
समीचीनं महोदय, धन्यवादः. अस्तु, सरला भगिनी अग्रिमभाग.
युवां 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 द्योतसे द्योतेथे द्योतद्वे, द्योतस्व द्योतेथां द्योतध्वम्, सहसे सहेथे सहद्वे, सहस्व सहेथां सहध्वम्, लज्जसे लज्जेथे लज्जद्वे, लज्जस्व लज्जेथां लज्जध्वम्, सज्जसे सज्जेथे सज्जद्वे, सज्जस्व सज्जेथां सज्जध्वम्.
हा धन्यवादः भगिनि, समीचीनं. हा अस्तु, सन्ध्या भगिनी तत्र अधो भागे यदस्ति तत् करोति वा?
आम्. वर्ते वर्तामहे वर्तावहै वर्तामहै, वर्तै वर्तावहै वर्तामहै, विध्ये विद्यावहे विद्यामहे, विद्यै विद्यामहै विद्यामहै,
विद्यावहै विद्यामहै,
किध्ये किध्यावहे किध्यामहे, किध्यै किध्यावहै विद्यामहै, विद्ये विद्यामहे विद्यामहे, विद्यै स्विद्यामहै विद्यामहै.
भगिनि तत्र द्विवचने वहै इति अस्ति. पुनरेकवारम् अन्तिमं पुनरेकवारम् अन्तिमं लोट्लकारः वदतु. स्विध्यै
स्विध्यै स्विध्यावहै स्विध्यामहै.
हा समीचीनं, धन्यवादः. अस्तु, इदानीं
गमनीयं, क्षम्यताम्.
अस्तु भगिनि, अस्तु भगिनि, समीचीनं, चिन्ता मास्तु. अस्तु, नमस्कारः. अस्तु,
सिद्वे किमर्थं महोदय सिद्वे
स्विध्ये कोऽपि वदति वा?
सेल्फ
ल्यूमिनस् वा?
सेल्फ ल्यूमिनस्,
सेल्फ ल्यूमिनस्. अस्तु,
I don't know.
अस्तु 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 अस्तु, रघुपति महोदय द्रष्टव्यं महोदय. गीता भगिनी इदानीं शोभते यत् अस्ति शोभताम् इति, शोभताम् इति रूपं यत् अस्ति तद् प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष वचनमपि एकवचनं द्विवचनं बहुवचनं तत्सर्व सर्वं कोष्टके दत्तमस्ति तदेकवारं करोतु भगिनि.
शोभते शोभेते
केवलं लोट्लकाररूपं
शोभतां शोभेतां शोभन्तां रमतां रमेतां
केवलं शोभते इति शोभतां शोभेतां शोभन्तां शो
फर् आल् वा शोभतां शोभेतां शोभन्तां शोभस्व शोभेतां शोभध्वं शोभै शोभावहै शोभामहै
समीचीनं
रमतां
अङ्किताकुमार भगिनी अग्रिमं करोति वा रमते अस्तु
रमतां रमेतां रमन्तां रमस्व रमेतां रमध्वं रमै रमावहै रमामहै
अस्तु अग्रिममपि करोतु अयते इति
अयताम् अयेताम् अयन्ताम् अयस्व अयेताम् अयध्वम् अयै अयावहै अयामहै
धन्यवादः भगिनि धन्यवादः समीचीनम् अस्तु रमजयन्ती भगिनी इदानीं स्मयते द्योतसे सहसे इति सर्वं
स्मयते इत्युक्ते कः अर्थः महोदय
स्मैल् इति तत्र दन्तः दन्तः न दृश्यते तादृश मन्दहासः इति वदामः स्मयते इति रमजयति
अग्रे
स्मयते द्योतसे सहसे इति
स्मयतां स्मयेतां स्मन स्मयन्ताम् स्मयस्व स्मयेतां समत्वं स्मयसे
न तत्र स्मयै इति स्मयै
सोरि क्षम्यतां स्मयै स्मयावहै स्मयामहै
समीचीनं भगिनि इदानीं द्योतसे इति
क्षम्यतां महोदय
न चिन्ता मास्तु भगिनि अस्तु अग्रिमं द्योत इति
द्योतस्व द्योतेतां द्योततां द्योतेतां द्योतन्तां द्योतस्व द्योतेतां द्योतत्वं द्योतैः द्योतैः द्योतैः
केवलं
द्योतै ज्योतै ज्योतै ज्योतावहै ज्योतामहै
इदानीं सहसे सहतां
सहतां सहेतां सहन्तां सहस्व सहतां सहध्वं सहै सहावहै सहामहै
समीचीनं भगिनि धन्यवादः भानुचेतनी महोदय नमस्कारः रघुपति महोदय अग्रिमं तत्र लज्ज सज्ज अपि वर्त इति अस्ति तद् स्वीकृत्य नवरूपाणि वदति वा महोदय
लज्जसे लज्जेते लज्जद्वे लज्जतां
महोदय लज्जसे इति लज्ज इति स्वीकृत्य
लज्ज
पुरुष सर्वं लज्जतां लज्जेताम् इति
लज्जतां लज्जेतां लज्जन्तां लज्जस्व लज्जेतां लज्जद्वं लज्जै 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 लज्जावहै लज्जामहै सज्जा सज्जतां सज्जेतां सज्जन्तां सज्जस्व सज्जेथां सज्जध्वं सज्जै सज्जै सज्जावहै सज्जामहै वर्ततां वर्तेतां वर्तन्ताम् वर्तस्व वर्तेथां वर्तध्वं वर्तै वर्तावहै वर्तामहै.
हा समीचीनं महोदय, समीचीनं, धन्यवादः. गीताञ्जलि भगिनी, भवती अपि कर्तुम् इच्छति वा अद्य?
आम् आं महोदय,
करोति वा? अस्तु, तत्र विद्ये किद्ये स्विद्ये इति अस्ति, तत्र विद्यतां विद्येतां विद्यन्ताम् इति कोष्टकं यत्र अस्ति तत्र नवरूपं प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष सर्वं तद्वदति वा?
विद्येतां
विद्यतां
विद्येतां विद्यन्तां विद्यस्व विद्येतां विद्यध्वं विद्यै विद्यावहै विद्यामहै.
हा समीचीनम्. इदानीं स्विद्ये स्विद्यतां
स्विद्यतां स्विद्येतां स्विद्यन्तां स्विद्यस्व स्विद्यस्व स्विद्येतां स्विद्यध्वं स्विद्यै स्विद्यावहै स्विद्यामहै.
तत्र किद्ये इति तदेव अस्ति, तदपि करोतु, किद्ये अपि एकवारं करोतु, पूर्णं भवति. खिद्यतां
खिद्यतां खिद्येतां खिद्यन्तां खिद्यस्व खिद्येतां खिद्यध्वं खिद्यै खिद्यावहै खिद्यामहै.
हा समीचीनं भगिनि. अस्तु, तत्र तत्र आत्मनिपदि धातूनां लोट् लकाररूपं कीदृशम् इति दृष्टवन्तः इदानीं, तस्य किञ्चित् अभ्यासमपि कृतवन्तः.
महोदय, खिद्ये इत्युक्ते धन्यवादः. स्विद्ये इत्युक्ते स्वेटिङ्ग् महोदय,
एतत् विस्मृतवान् यत् भ्रातृमेलनं कथायां तद् आसीत् स्विद्यते इति. अहं विस्मृतवान् भ्रातृमेलनं मध्ये तत् तत्र पेज् 46 मध्ये पश्यतु, तत्र भीमसेनः हनुमतः पुच्छं ग्रहीतुं प्रयत्नं करोति खलु, तत्र तस्मिन् सन्दर्भे भीमसेनस्य शरीरं स्विद्यते इति अस्ति, तत् स्वेट्टति, पर्स्पायर्. हा स्विद्य
प्रान्तीयभाषा अपि अस्ति, स्वेद कन्नड.
आमाम् सत्यम्. अस्तु, इदानीं तत्र किञ्चित् अभ्यासं कृतवन्तः. अत्र वयं किं कुर्मः, समयः बहु समयः अस्ति, तत्र एतदेव विषये किञ्चित् अपि अग्रे अपि अभ्यासं कर्तुं शक्नुमः, किन्तु तस्य पूर्वं तत्र अहम् एतत् अपि वक्तुम् इच्छामि, तत्र लोट्लकारस्य अन्य अपि अत्र प्रसिद्धः उदाहरणम् अस्ति, प्रसिद्धम् उदाहरणम् अस्ति तत् तत् ब्लाक्बोर्ड् मध्ये अन्तिमपुटे अहं स्थापितवान् अस्मि. तत्र यत् अस्ति एकवारं कः पठति भानुचैतन्य महोदय अस्ति वा नास्ति इति मन्ये. अस्तु रघुपति महोदय तत्र भवानेव पठतु तत्र यत् अग्रे अन्तिमभागः अस्ति सः न भवतु इति. एतत् ब्लाक्बोर्ड् मध्ये अस्ति कोष्टकं सर्वम् अस्ति तदनन्तरम् एतत् शान्तिमन्त्रः अस्ति रघुपतिमहोदय पश्यति वा
आम् महोदय आम् महोदय एकनिमिषम् एकनिमिषं महोदय सहना ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः.
तत्रापि लोट् लकार एव अस्ति तत्र अवतु इति अवतु इति लोट् लकाररूपम् अस्ति. अपि भुनक्तु इति लोट् लकार अस्ति तदनन्तरं किं करवावहै
करवावहै करवाम करवावहै ओके
विद्विषावहै तदपि लोट् लकार एव अस्ति किन्तु तत्र अवतु अवतु प्रथमपुरुष अवतु भुनक्तु प्रथमपुरुष एकवचन करवावहै
द्विवचनावहै
द्विवचनं उत्तमपुरुष द्विवचनम् अस्ति. अन्यत् अपि अन्यभेदः अपि अस्ति अवतु भुनक्तु अपि करवावहै विद्विषावहै कः भेदः अवतु भुनक्तु परस्मैपदी धातु अस्ति करवावहै विद्विषावहै आत्मनिपदी धातु अस्ति अतः तत्र प्रसिद्धम् उदाहरणम् अस्ति एतत् शान्तिमन्त्रं तत्रापि लोट् लकारः अस्ति अत्र अतः अवतु तत्र बहुत्र श्रूयते अवतु मा अस्तु क्षम्यताम् अस्तु अस्तु अपि लोट् लकारः अस्ति समीचीनं भगिनि धन्यवादः अस्तु अपि लोट् लकारः एव अस्ति परस्मैदातु अस्ति अतः लोट् लकारः सर्वत्र वयं शृण्मः किन्तु इदानीं यदि कोऽपि शृणोति पाहि त्राहि देहि इति श्रूयते चेत् मनसि स्थापयतु एतत् लोट् लकारः अस्ति इति अस्तु
अपि प्रसिद्ध श्लोकमस्ति सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु
समीचीनं भगिनि तदपि तत्रापि लोट् लकार एव अस्ति भवेत् इति तद् अन्यत् अस्ति अन्यत् रूपम् अस्ति सत्यं किन्तु लोट् लकार तत्रापि अस्ति सत्यं भगिनि धन्यवादः अस्तु इदानीं वयं किं कुर्मः अद्य अहं चिन्तयामि एतत् लोट् लकारस्य अभ्यासं कृत्वा एतत् समापयामः तदनन्तरम् अग्रिमवर्गे वयं सङ्ख्यायाः विषये कर्तुं तत् कर्तुं शक्नुमः. इदानीं लोट् लकार आत्मनिपदी धातूनां लोट् लकारस्य एव अभ्यासं कुर्मः अतः तत्र यत् अस्ति तत् पेज् 55 मध्ये यत् कोष्टकम् अस्ति तत्र इदानीं वयं केवलं क्रियापदस्य अभ्यासं कृतवन्तः किन्तु तत्र भवान् त्वं युवां यूयम् इति स्थापयित्वा वयं वदामः. अस्तु, अहं क्रियापदं ददामि, तत्र लोट् लकाररूपं भवान् भवन्तौ भवन्तः त्वं युवां यूयम् अहम् आवां वयम् इति स्थापयित्वा वदतु. तत्र पेज् 55 मध्ये यत् रूपम् अस्ति तदेव, भवान् वन्दतां, भवन्तौ वन्देतां, भवन्तः वन्दन्तां, त्वं वन्दस्व, युवां वन्देथां, यूयं वन्दध्वम्, अहं वन्दै, आवां वन्दावहै, वयं वन्दामहै इति. अस्तु, नरेश महोदय मोदति.
भवान् मोदतां, भवन्तौ मोदेतां, भवन्तः मोदन्ताम्, त्वं मोदस्व, युवां मोदेथां, यूयं मोदध्वम्, अहं मोदै, आवां मोदावहै, वयं मोदामहै.
हा, समीचीनं महोदय. हा, समीचीनं, धन्यवादः. गीता भगिनी तत्र वर्धते इति
भवान् वर्धतां.
गीता भगिनी,
भवान् वर्धतां.
सरला
महोदय.
अस्तु अस्तु भगिनि. अस्तु भगिनि, सरला भगिनि, नमस्कारः. नमस्कारः भगिनि, धन्यवादः. सरला भगिनि नमस्कारः, धन्यवादः. गीता भगिनि वदतु भगिनि.
भवान् वर्धतां, भवन्तौ वर्धेतां, भवान् वर्धतां, भवन्तौ वर्धेतां, भवन्तः वर्धन्ताम्, त्वं वर्धन्तां, वर्धन्ताम्. त्वं वर्धस्व, युवां वर्धेतां, युवां यूयं.
भवान् वर्धताम् इति अस्ति,
भवान् वर्धतां, भवन्तौ वर्धेतां, भवन्तः वर्धन्तां, त्वं वर्धस्व, युवां वर्धेतां, यूयं वर्धध्वम्, अहं वर्धै, आवां वर्धावहै, वयं वर्धामहै.
समीचीनं भगिनि, धन्यवादः. रमाजयति भगिनि, शोभते इति.
अस्तु महोदय, क्रियापदं किं महोदय?
रमाजयति भगिनि.
अस्तु महोदय, हलो हलो.
किञ्चित् श्रूयते.
क्रियापदं किं महोदय?
न श्रूयते भगिनि.
ओ
हलो, शोभते क्रियापदम्.
क्रियापदं
शोभते
महोदय.
शोभते,
शोभते,
शोभते.
भवान् शोभतां, भवन्तौ शोभेतां. Can you hear me? Hello?
Some sound disturbance is there.
Can you hear me now? Hello? Can you hear me?
Yeah,
भवान् शोभतां यमिना महोदय
इदानीं श्रूयते भगिनि वदतु भगिनि
सो क्रियापदं शोभते वाट् इस् द क्रियापदम्
सत्यं शोभते
भवान् शोभतां भवन्तौ शोभेतां भवन्तः शोभन्ताम् त्वं शोभस्व युवां शोभेतां यूयं शोभध्वम् अहं शोभै
अन्तिमभागः न श्रुतवान् भगिनि समीचीनं भगिनि धन्यवादः धन्यवादः अस्तु 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 चिन्ता मास्तु गीताञ्जलि भगिनि तत्र प्रकाशते इति
भवान्
प्रकाशताम् इति क्रियापदमस्ति प्रकाशते प्रकाशते तत्र भवान् प्रकाशताम् इति
भवान् प्रकाशतां भवन्तौ प्रकाशेतां भवन्तः प्रकाशन्तां त्वं प्रकाशस्व युवां प्रकाशेतां यूयं प्रकाशध्वम् अहं प्रकाशै आवां प्रकाशावहै वयं प्रकाशामहै
महै तत्र अहं प्रकाशै
प्रकाशै
प्रकाशै इति उक्तवती खलु अहं प्रकाशै इति उक्तवती खलु प्रकाशै समीचीनं धन्यवादः धन्यवादः अस्तु धन्यवादः भगिनि अस्तु नरेश महोदय तत्र इदानीं तदेव भवति इति भवती इति स्वीकृत्य भवान् स्थाने भवति इति स्वीकृत्य नदी नद्यो नद्यः भवती भवत्यो भवत्यः इति तत्र लज्जते इति
भवति लज्जतां भवत्यौ लज्जेतां भवत्यः लज्जन्ताम् त्वं लज्जस्व युवां लज्जेथां यूयं लज्जध्वम् अहं लज्जै आवां लज्जावहै वयं लज्जामहै
समीचीनं समीचीनम् अस्तु गीता भगिनी तत्र कम्पते भवती कम्पताम् इति
कम्पते
भवान् किन्तु भवती भवती भवान् न भवती इति
भवती
किञ्चित् परिवर्तनं कुर्मः
भवती कम्पतां भवती भवत्यौ कम्पेतां भवत्यः कम्पन्तां त्वं कम्पस्व युवां कम्पेतां यूयं कम्पद्वं कम्पद्वम् अहं कम्पै अहं कम्पै आवां कम्पावहै वयं कम्पामहै
समीचीनं भगिनि अस्तु रमा जयन्ती भगिनि
अस्तु महोदय
तत्र पलायते
अस्तु महोदय भवती पलायतां
भवत्यौ पलायतेताम्
पलायेताम्
पलायेताम् भवत्यः पलायन्ताम् त्वं पलायस्व युवां पलायतेथाम्
पलायेथाम्
यूयं पलायध्वम् अहं पलायतै आवां
पलायै
अहं पलायै आवां पलावहै वयं पलामहै.
हा समीचीनं भगिनि. तत्र द्विवचने एकारः मध्ये आगच्छति. वन्देताम् हा तत्र वन्दतां वन्देताम् एकारः मध्ये आगच्छति. तदेव अस्ति. अत्र नूतनक्रियापदम् अस्ति चेत् तत्र एकारः स्थापनीयमस्ति. तावदेव. अस्तु गीताञ्जलि भगिनी वदतु. पलायेताम् तत्र द्विवचने पुनरेकवारं प्रथमं भवति पलायेताम् द्विवचन प्रथमपुरुषः तदनन्तरं मध्यमपुरुष पलायेथाम् महाप्राणः भवति प्रकारः पलायेताम्
धन्यवादः.
तत्र एकः नास्ति. तत्र अस्तु भगिनि. गीताञ्जलि भगिनि तत्र
अस्तु
महोदय. गीताञ्जलि भगिनि भवती एतत् गीताञ्जलि भगिनी भवती एतत् एतत् करोतु. गीताञ्जलि भगिनि पलायते वा?
अस्तु अस्तु महोदय.
गीताञ्जलि भगिनी प्रश्न
अस्तु महोदय.
पलायते इत्युक्ते किमिति वा प्रश्न?
प्रश्न पलायते
इदानीं श्रूयते वा
महोदय? सम्यक् न श्रूयते.
रनवे एस्केप् पलायते
पलाय वहै पलाय वहै
पलायावहै तत्र दीर्घ आकारः भवति. वन्द तत्र वन्दावहै वन्दामहै इति अस्ति. अतः अहं चिन्तयामि पलायावहै पलायामहै इति महोदय.
पलायावहै पलाय
महोदय समीचीनं वा?
आम् आम्
अस्तु. सत्यं. अस्तु गीताञ्जलि भगिनी तत्र भाषते इति तत्र भवती भाषताम् इति तादृशरूपं वदति वा?
अस्तु अस्तु महोदय.
गीताञ्जलि भगिनी श्रूयते वा?
भवान् आम् आम् भवती भाषतां भवत्यौ भाषेतां
भाषतां
भाषे भवत्यौ भाषेतां भवत्य भाषन्तां त्वं भाषस्व युवां भाषेथां यूयं भाषध्वम् अहं भाषै आवां भाषावहै वयं भाषामहै.
समीचीनं भगिनि, धन्यवादः. अस्तु रघुपति महोदय, तत्र इदानीं सेवते इति भवती सेवताम् इति तदेव यत् कोष्टके अस्ति नवरूपाणि पुरुषः के भवति भवत्यो भवत्यः इति सेवतां भवती सेवतां सेवते इति क्रियापदम् इदानीं भवती सेवतां
भवति
तादृशरूपी
सेवतां भवत्यौ
तत्र भवान् इति दत्तमस्ति परिवर्तनार्थं
भवती सेवतां भवत्यौ सेवेतां भवत्यः सेवन्तां भवत् मध्यपुरुष त्वं सेवस्व युवां सेवेतां यूयं सेवध्वम् अहं सेवै आवां सेवावहै वयं सेवामहै.
समीचीनं महोदय, अस्तु धन्यवादः. इदानीम् एतत् कुर्मः, अद्य लोटकर आत्मनिपदि धातूनां लोटकर अभ्यासः इति तदेव कुर्मः इति आशा. अतः वयम् एतत् ब्लाक् बोर्ड् त्यजामः. अन्यत् करपत्रं तत् तस्य अपि लिङ्क् अहं प्रेषितवान् अस्मि, तत्र ईमेल् द्वारा अस्ति. तत्र आत्मनेपदि पदिनः दातवः इति गतवर्गे अपि वयं तस्य तत् पठितवन्तः. सर्वे पश्यन्ति वा तत् गीताञ्जलि भगिनी, तत्र करपत्रं पश्यति वा आत्मनेपदि धातूनां? तत्र ईमेल् मध्ये अहं लिङ्क् प्रेषितवान् अस्मि. तत्र वि विल् यूस् द फालोयिङ्ग् करपत्रम् इन् क्लास् इति.
अस्तु महोदय.
प्रथम फस्ट् सेण्टेन्स् सेकेण्ड् सेण्टेन्स् इट् सेल्फ् भगिनि, हिन्दी ईमेल् अस्तु. एतत् अभ्यासं कुर्मः. तत्र आत्मनेपदिनः लट्लकाररूपं दत्तमस्ति, किन्तु इदानीं लोट्लकारः तस्य अभ्यासः इदानीम् अस्ति. अतः वयं किं कुर्मः, यत् वाक्यं दत्तमस्ति तस्य लोट्लकार केवलं यत् क्रियापदमस्ति तस्य लोट्लकाररूपं वदामः तावदेव. अस्तु, तत्र नरेश महोदय, तत्र पक्षी आकाशे डयति इति अस्ति.
पक्षी आकाशे तत्र
डयताम्. अस्तु अग्रिमम्
एषः दूरवाण्या भाषताम् पुस्तकम् उत्पीठिकायां विद्यताम् गृहिणी वाताय.
समीचीनं महोदय.
गृहिणी
वातायनात्
वीक्षताम् आकाशे सूर्यः प्रकाशताम् शिशुः खेदताम् भक्तः देवं वन्दताम् चोरः आरक्षकात् प्लायताम् शिष्यः गुरुं सेवताम् याचकः भुङ्क्ताम् माता पाकशालायाम् आस्ताम् ब्रह्मचारी
लोट्लकारः अहं दत्तवान् वा तत् लोट्लकारः अस्तु आस्ते आस्तं समीचीनं महोदय समीचीनम् अस्तु 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 हा हा अग्रिमं नरेश् महोदय अग्रिमं वदतु हा
ब्रह्मचारी भिक्षां याचताम्
हा समीचीनं महोदय धन्यवादः धन्यवादः अस्तु गीता भगिनी अग्रे
महोदय मम पार्श्वे नास्ति महोदय
गीता भगिनी
I don't have it. Mam paashve karapatram nasti. Kinchit.
Etat karapatram gatavargya api mayam. Anana, tat email asti kalu bagini? Email asti kalu?
Today, adhi?
Reminder email asti kalu?
Saturday email?
Dvitiya vakyam asti.
We will use the following link.
Karapatram in class.
Following link.
Tasya purvam.
Oh.
Okay, but before that, oh. Sentence before that.
Okay, I got it.
Etat karapatram gatta varge api vayam drishtavantaha. Abhyastam krutavantaha. Tadeva asti.
I got it. So where are we now?
Tatra. तत्र ब्रह्मचारी भिक्षां याचताम् इति नरेश् महोदय उक्तवान् तदनन्तरं वधूः श्वशुरात्
श्वशुरात् लज्जते
इदानीं लोट्लकाररूपं वदतु
वधूः श्वशुरात् लज्जतां लज्जतां
छात्रः
छात्रः देवं प्रार्थयते प्रार्थयताम् एषः उद्याने मोदताम् वर्धताम् नारिकेलवृक्षः वर्धताम् कमलं जले जायताम् बालकः मिष्टान्नं कामयताम् कण्ठे हारः शोभताम् कण्ठे एषः बन्धोः वियोगेन खिद्यताम् Okay, and Govindaha
Spardhatam, Samichinam Bhagni, Astu. Ramajayanti Bhagni Agre?
Astu Mahodaya. Lataya Puspe Jayantam.
Jayatam.
Jayatam?
Ukshaha. समीचीनं जायेताम् इति जायेते इति वचनं तत्र किम् अस्ति तत्र जायते इति नास्ति जायेते इति अस्ति भगिनि लतायाम् इति तत्र पुष्पे तत्र क्रियापदं रमजयन्ति भगिनि तत्र क्रियापदम् अस्ति जायेते इति खलु कर्तृपदं किम् अस्ति पुष्पे द्विवचनं पुष्पं पुष्पे पुष्पाणि इति
लतायां पुष्पे जायेताम् वृक्षाः वायुना सम्पन्ताम् वृक्षे पुष्पाणि शोभन्ताम्
शोभन्ताम्
सत्कार्येण ते सुखं लभन्ता. बालौ क्रीडया मोदेता.
हा मोदेतां समीचीनं, द्विवचने अस्ति, समीचीनं. हा
क्रीडापटवः
समीचीनं.
सज्जनाः लोकमङ्गलं कामयन्ताम्. दरिद्राः कष्टं सहन्ताम्. ते सम्यक् भाषन्ताम्.
समीचीनं भगिनि, धन्यवादः. अस्तु गीताञ्जलि भगिनि, अग्रिम यत् अस्ति युवां कुत्र?
अस्तु अस्तु महोदय. युवां कुत्र पालयेताम्?
पलायेथे इति अस्ति.
ओ पलायेताम्. प्रश्न महोदय, प्रथम एकवचनम् एण्ड् द्विवचनं किम् अन्तर पलाये ताम् एकवचनं द्विवचनं पलाये ताम्.
इट् डिफर्स् ओन्ली इन् एकारः. पलायतां, सः पलायतां, तौ पलायेताम्.
सो द ए डिसपियर्स् इन् एकवचनम् एण्ड्
ओर् रादर् देर् इस् नो एकार इन् इन् एकवचनम्. इट् कम्स् ओन्ली इन् द्विवचनम्. इट् कम्स् ओन्ली इन् द्विवचनम्. So whenever you hear the ekara, you should think, oh, this is dvivachanam.
Asti. Yuvam kutra palayetam. Yuvam kutra palayetam.
Palayetam. Yetam. Yetam eva samichanam.
Tvam sanskritena भाषताम्.
न न, त्वम् इति अस्ति इदानीं,
सः
नास्ति. समीचीनं, भाषस्व. समीचीनं भगिनि.
त्वं संस्कृतेन भाषस्व यूयं कष्टं सहद्वं.
सहद्वं समीचीनं.
यूयं चित्राणि दीक्षध्वं. यूयं संस्कृतोन्नतिं.
संस्कृतस्य उन्नतिं. संस्कृतस्य उन्नतिं. संस्कृतोन्नतिं.
संस्कृतोन्नतिं. कामयध्वम्.
समीचीनं भगिनि.
त्वं शरीरेण वर्धस्व.
समीचीनं भगिनि, धन्यवादः. समीचीनम्. अस्तु रघुपतिमहोदय, अन्तिमभागः तत्र.
अहं देवं वन्दे. अहं देवं वन्दै. अहं कष्टं सहे. अहं कष्टं सहै. अहं सुखं कामये. अहं सुखं कामयै. ओके. आवां मिष्टानं लभावहे. आवां मिष्टानं लभावहै. आवां चित्रं दृष्ट्वा मोदावहै. आवां संस्कृतेन भाषावहै वयं संस्कृते संस्कृतोन्नतिम् अपेक्षामहै वयं कष्टं सहामहै वयं सिंहं दृष्ट्वा पलायामहै
सर्वं सर्वे एतदेव कुर्वन्ति खलु सिंहं दृष्ट्वा किं कुर्वन्ति वयं सिंहं दृष्ट्वा पलायामः एतदेव
अस्ति
मृगालये न मृगालये न किन्तु किन्तु यदि कुत्रापि गच्छामः तत्र सिंहः अस्ति चेत् वयं पलायामः
अस्ति महोदय शुनकं दृष्ट्वा अपि पलायामः
हा सब सत्यं 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 भगिनि हा अस्तु अत्र किम् अद्य वयं कृतवन्तः प्रथमं लोट्लकार परस्मैपदी धातूनां लोट्लकारस्य अभ्यासं कृतवन्तः तदनन्तरं द्वितीय अर्धभागे वयम् आत्मनिपदी धातूनां लोट्लकारस्य रूपं तस्य अभ्यासं कृतवन्तः लोट्लकार पुनरेकवारं वदामि लोट्लकार इत्युक्ते प्रार्थना अथवा आदेशः भवान् एतत् करोतु त्वम् एतत् कुरु इति यद् वदामः तदेव लोट्लकारः अस्ति तद्रूपं बहु प्रसिद्धम् अस्ति सर्वत्र वयं पश्यामः तादृशरूपं देहि पाहि अवतु तत् सर्वत्र लोट्लकार एव अस्ति अस्तु अत्र एतत् एव अस्माकं लोट्लकारस्य अभ्यासः अग्रिमवर्गे वयं सङ्ख्या इति तद् पश्यामः पेज् 58 मध्ये अस्ति तद् अग्रिमवर्गे पश्यामः इदानीं समयः जातः विरमाम सर्वेभ्यो नमस्कारः अग्रिमवर्गे मिलामः
नमस्कारः
धन्यवादः
शुभरात्रि
शुभरात्रि नमस्कारः